श्रीगणेशप्रभावस्तुतिः ओमित्यादौ वेदविदोऽयम् प्रवदन्ति ब्रह्माद्यायम् लोकविधाने प्रणमन्ति योऽन्तर्यामी प्राणिगणानाम् हृदयस्थस्थम् विघ्नेशम् दुःखविनाशम् कलयामि गङ्गागौरीशङ्करसन्तोषकमुहृतम् गन्धर्वाळीगीतचरित्रम् सुपवित्रम् यो देवानामादिरनादिर्जगदीशस्त्वम् विघ्नेशम् दुःखविनाशम् कलयामि गच्छेत्सिद्धिम् यन्मनुजापे कार्याणाङ्गम् तापारम् संश्रुतिसिन्धोर्यद्वेत्ता गर्वग्रन्थेर्यः किल भेत्ता गणराजस्त्वम् विघ्नेशम् दुःखविनाशम् कलयामि नण्येत्युच्चैर्वल्लजपादौ पूजार्थम् यद्यन्त्रान्तः पश्चिमकोणे निर्दिष्टम् बीजम् ध्यातुः पुष्टिदमाथर्वणवाक्यैस्त्वम् विघ्नेशम् दुःखविनाशम् कलयामि पद्भ्याम् पद्मश्रीमदहृद्भ्याम् प्रत्यूषे मूलाधाराम् भोरुहभास्वद्भानुभ्याम् योगी यस्य प्रत्यहमजपार्पणदक्षस्तम् विघ्नेशम् दुःखविनाशम् कलयामि तत्त्वम् यस्य श्रुतिगुरुवाक्यैरधिगत्य ज्ञानी प्रारब्धानुभवान्ते निजधाम शान्ता विद्या तत्कृतबोधस्वयमीयात्तम् विघ्नेशम् दुःखविनाशम् कलयामि ये ये भोगालोकहितार्थाः सपुमर्था ये योगाः साध्यसु लोकाः सुकृतार्थाः ते सर्वे स्युर्यन्मनुजपतः पुरुषाणाम् तम् विघ्नेशम् दुःखविनाशम् कलयामि नत्वा नित्यम् यस्य पदाब्जम् मुहुरर्थे निर्द्वैतात्माखण्डसुखस्याद्धतमोहः कामान् प्राप्नोतीति किमाश्चर्यमिदानीम् तम् विघ्नेशम् दुःखविनाशम् कलयामि मस्तप्रोच्यचन्द्रकिशोरम् करवक्त्रम् पुस्ताक्षस्रक्पाशश्रुणीस्फीतकराब्जम् शूर्पश्रोत्रम् सुन्दरगात्रम् शिवपुत्रम् तम् विघ्नेशम् दुःखविनाशम् कलयामि सिद्धान्तार्थाम् सिद्धिगणेशस्तुतिमेनाम् सुब्रह्मण्याह्वयसूर्युक्ताम् मनुयुक्ताम् उक्त्वा श्रुत्वापेक्षितकार्यम् निर्विघ्नम् मुक्त्वा मोहम् बोधमुपेयात् तद्भक्तः इति श्रीसुब्रह्मण्ययोगिविरचिता श्रीगणेशमन्त्रप्रभावस्तुतिः।